महत्तदुल्भम् स्थवीरम् तदासीद्येनाभिश्चितः प्रविवेशीथापः विश्वा अपश्यद्बहुधा ते अग्ने जात वेदस्तन्वो देवजेताः कोमादर्शकदेवो यो मे तन्वो बहुधा पर्यपश्यत् वाहमित्रावरुणाक्षियम् जग्नेर्विश्वास्वमिधो देवजानीः वै चावत्त्वा बहुधा जात वेद प्रविष्टमग्ने अप्सोषधीषु सन्त्वा यमो अधिकेच्चित्रभानो दशान्तरुष्यादधिरोचमानम् ोत्रादहम् वारुणविद्यादायम् मे देवमायुनजन्मत्र देवाः तस्य मे तन्वो बहुधा निविष्टा येतमर्थम् नचिकेताहमग्निः ये हि मनुर्देवयुर्यज्ञकामो रङ्कृत्यातमशिक्षेष्यग्ने युगान् पतः कृणिः देवजानान्वहव्यानि सुमनस्य मानः अग्नेः पूर्वे भ्रातरो अर्थमेतम् रसीवाद्वा नमन्वावरीवुः तस्माद्धियावरुणदूरमायम् गौरो लक्षेप्नोरविजेद्यायाः कुर्मस्तायुरजरम् यदग्ने यथा युक्तो जातवेदो नरिष्याः अथावहासितु मनस्य मानो भागम् देवेभ्यो हमिषस्तु जात याजान्मे अनुयाजास्येव नानूर्जस्वन्तम् हमिषो धत्तभागम् घृतम् चापाम् पुरुषम् चौषधीनामग्नेश्च दीर्घमायूरस्तु देवाः तव प्रजाजा अनुजाजाश्च केवलमूर्जस्वन्तो हविषः सन्तु भागाः तवाग्नेयज्ञो ओजमस्तु सर्वस्तुभ्यम् नमन्ता प्रतिसश्चतस्रः